किं वदामि
प्रार्थनां यत् किमपि भगिनि तत्र प्रार्थनारूपेण
सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवति मे सदा गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः धन्यवादः महोदय
धन्यवादः भगिनि धन्यवादः नमस्कारः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कर्मणि भावे प्रयोगः इति तत्र कर्मणि भावे प्रयोगः तत्र लट्लकारे लोट्लकारे अपि वयं दृष्टवन्तः प्रयोगः कथं भवति इति इदानीं तत्र लङ् लकाररूपाणि अद्य पश्यामः अतः तत्र पुटसङ्ख्या अस्ति 142 गीतासोपनस्य द्वितीयभागे 142 अस्ति किन्तु तस्मात् प्राक् तत्र लङ्लकारं कर्त्री लङ्लकारः कथं भवति इति एकवारं पुनस्मरणं कुर्मः अतः तत्र नरेश् महोदय तत्र आत्मनिपद अस्तु प्रथमतया तत्र परस्मैपदी धातूनां तत्र गच्छति इति तत्र लङ्लकारे किं भवति
लङ्लकारे अगच्छत् अगच्छताम् अगच्छन् अगच्छः अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छाम
हा समीचीनं महोदय अस्तु समीचीनम् अस्तु इदानीं तत्र उमामीनाक्षी भगिनी भवती तत्र सहते इति पदस्य तत्र लङ्लकाररूपाणि वदति वा सहते इदानीम् आत्मनेपदी धातु भगिनी तत्र किञ्चित् तत्र तत्र ध्वनि न श्रूयते भगिनि
इदानीं श्रूयते वा
हा इदानीं किञ्चित् श्रूयते भगिनि हा
असहत
आरम्भं करोतु भगिनि असहत समीचीनम् असहत
असहत असहेताम् असहन्त असहथाः असहेथाम् असहध्वम् असहे असहावहि असहामहि
हा समीचीनं भगिनि धन्यवादः अस्तु इदानीं रघुवीरेन्द्रस्वामी इदानीं तत्र पठति इति लङ्लकारः
अपठत अपठे
इदानीं पठति तु इदानीं परस्मैपदी धातु अपठत्
अपठत् अपठताम् अपठन् तदेव खलु महोदय
सत्यं सत्यं
अपठः अपठतम् अपठत अपठम् अपठाव अपठाम
हा इति समीचीनम् अस्तु इदानीं तत्र सूर्यकुमारी भगिनी इदानीं तत्र
क्षम्यतां महोदय पुटसङ्ख्या
142 भगिनी 142 लङ्लकारः इति मूलविषये कर्मणि भावे प्रयोगे लङ्लकारः लङ्लकारस्वरूपं कर्तरिप्रयोगे कथं भवति इति पुनस्मरणम् इति कार्यं तावदेव अस्तु इदानीं सूर्यकुमारी भगिनी इदानीं तत्र सहते इति मास्तु तत्र तत्र वर्तते इति करोति वा
महोदय
लङ्लकारे कर्त्री कर्त्री लङ्
अवर्तत अवर्तेताम् अवर्तन्त तथाः अवर्तेथाम् अवर्तन्तम्
अवर्धध्वम्
अवर्ते अवर्तावहि अवर्तामहि
हा समीचीनम् अस्तु इदानीं लक्ष्मीभगिनी तत्र कम्पते
अकम्पत अकम्पेताम् अकम्पन्त अकम्पताः अकम्पेताम् अकम्पध्वम् अकम्पे अकम्पावहि अकम्पामहि
हा इति समीचीनम् इदानीं तत्र कर्त्री तत्र लङ्लकारे कर्तृप्रयोगः यदा भवति तत्र लङ्लकारे परस्मैपदीधातूनां रूपं भिन्नं भवति आत्मनेपदीधातूनां रूपं भिन्नं भवति किन्तु वयं जानीमः तत्र यदि कर्मणि भवति चेत् परस्मैपदी वा आत्मनेपदीधातुः वा किन्तु कर्मणि प्रयोगे रूपं समानं नाम तत्र यक् इति योजनेन तत् प्रथमतया यक् योजयामः तदनन्तरम् आत्मनेपदीधातुः इति चिन्तनं कृत्वा लकारं लकारान् कुर्मः तत्र अतः तत्र किमपि कोऽपि धातुः भवतु परस्मैपदीधातुः वा आत्मनेपदीधातुः वा यक् इति योजयित्वा तदनन्तरम् आत्मनेपदीधातूनां धातु इव इति चिन्तयित्वा तत्र लकाराणां निर्माणं कुर्मः अतः तत्र असहत असहिताम् इति तत्र तदेव रूपम् अपेक्षितमस्ति मनसि अस्तु तर्हि इदानीं तत्र पाठं पठितुं शक्नुमः किन्तु तस्मात् प्राक् तत्र अन्यः अंशः अस्ति तत्र यः किमपि यः कोऽपि लकारः भवतु कर्मणि प्रयोगे तत्र सर्वदा सूत्रं सर्वदा एकमेव तत्र कर्तृप्रयोगे यः कोऽपि लकारः भवतु सूत्रं कर्तृप्रयोगे सूत्रम् अस्ति किं सूत्रं तत्र नरेश् महोदय सूत्रं किं कर्तृप्रयोगे
कर्तृप्रयोगे कर्तृपदं प्रथमविभक्ति कर्मपदं द्वितीयविभक्ति क्रियापदं कर्तृपदम् अनुसरति
अतः सूत्रम् इति रूपेण किं वदामः
एकं द्वि एकं
हा एकं द्वे एकम् इति वदामः एकं नाम कर्तृपदस्य प्रथमाविभक्ति द्वे नाम कर्मपदस्य द्वितीयाविभक्ति इदानीं द्वितीय एकस्य अर्थः कः
कर्तृ क्रियापदं कर्तृपदम् अनुसरति कर्तृपदं प्रथमविभक्ति अस्ति
समीचीनं समीचीनं धन्यवादः तत्र लकारभेदः अस्ति वा एतत् सूत्रं केवलं लट्लकारे प्रयोजनं करोति इति वा अथवा यः कोऽपि लकारः भवतु क्रिया कर्तृप्रयोगः अस्ति चेत् एतदेव सूत्रं खलु हा तत्र लट्लकारे वा तत्र लोट्लकारे वा लङ्लकारे वा किमपि कोऽपि लकारः भवतु एतदेव सूत्रं कर्तृप्रयोगे समीचीनं धन्यवादः महोदय इदानीं रघुवीरेन्द्रस्वामी इदानीं तत्र कर्मणि प्रयोगे तत्र सूत्रं किम्
कर्मणि प्रयोगे महोदय कर्म क्रियापदम् अनुसरति अतः कर्म प्रथमाविभक्त्यां भवति कर्ता तृतीया विभक्त्यां भवति
अतः तत्र कर्मपदम् अपि क्रियापदस्य सम्बन्धः केषु विषयेषु भवति पुरुष पुरुष अपि वचनं हा समीचीनं पुरुषवचनं अत्र लङ्लकारे भिन्नं सूत्रं लोट्लकारे भिन्नं सूत्रम् इति नास्ति खलु केवलं कर्मणि प्रयोगः इति एव वार्ता खलु हा सूत्रं तत्र तु त्रीणि एकम् एकम् इति त्रीणि एकम् एकम् इति अस्तु समीचीनं हा एतत् मनसि भवति चेत् बहु लाभः एव अस्तु तर्हि इदानीं तत्र साक्षात् पाठं पठामः तर्हि अस्तु तर्हि तत्र सूर्यकुमारी भगिनी आरम्भं करोति वा पाठः अस्ति 142 मध्ये
महोदय
हा कथा कथा तत्र परेषां दुःखं स्वदुःखम् इति
परेषां दुःखं
स्वदुःखं
कर्मणि भावे प्रयोगः लङ्लकारः एतां कथाम् उच्चैः पठत कस्मिंश्चित् ग्रामे काचित् वृद्धा पुत्रेण सह निवसति स्म मातापुत्रौ उभौ अपि दयापरौ लघुगृहे एव आसीत् तयोः वासः कदाचित् वृद्धा रुग्णा जाता औषधस्य निर्माणाय तया गोत्रवृक्षस्य त्वक् अहिष्यत तया पुत्रः आहूयत सीया अपेक्षा असूच्यत च
अस्तु समीचीनम् अस्तु लक्ष्मी भगिनी अग्रे पठति वा
अस्तु महोदय पुत्रेण वनम् अगम्यत बहुत्र अन्विष्य अन्ते तेन लोद्रवृक्षः अदृश्यत
न श्रूयते भगिनि लक्ष्मी भगिनि लक्ष्मी भगिनी न श्रूयते हा न जानामि किम् अभवत् तत्र अस्तु उमा मीनाक्षी भगिनी भवती पठितुमिच्छति वा अग्रे उमा भगिनी
ओके अन्म्यूट् कर्तुं तु समयः जातः ओके कुत्र तेन परशुना लोद्रत्वचः अकृत्यन्त ताः सर्वाः सङ्गृह्य गृहम् आनीय मात्रे अधीयन्त मात्रा लोद्रत्वचा औषधम् अक्रियत तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता जाता
अस्तु अग्रे अपि किञ्चित् पठतु भगिनि
अग्रे अपि पठामि वा
पठतु भगिनि
ओके पुनः कदाचित् तया पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोक्यत तया आतङ्केन पुत्रः अपृच्छत् वत्स भवतः श्वेतवस्त्रं कथं रक्तमयं सञ्जातम् इति पुत्रेण न किमपि अकथ्यत तेन तूष्णीम् अस्थीयत तदा मात्रा सानुरोधम् अपृच्छत पुत्र किं जातम् उच्यताम् इति
धन्यवादः भगिनी समीचीनम् अस्तु तत्र लक्ष्मी भगिनी न जानामि तत्र प्रायशः सा प्रत्यागच्छति इति मन्ये अस्तु तर्हि तत्र अग्रे नरेश महोदय
तदा पुत्रेण अकथ्यत अम्ब तस्मिन् दिने लोद्रवृक्षस्य छेदनसमये मम मनसि विचारः उत्पन्नः त्वचः निष्कासनसमये तेन वृक्षेण कियति वेदना अनुभूता स्यात् यद्यपि तेन वक्तुं न शक्यते तथापि वेदना स्यादेव इति अद्य मया निश्चितं यत् वृक्षस्य कीदृशी वेदना जाता स्यात् इति मया ज्ञातव्यम् इति अतः मया मम शरीरस्य किञ्चित् चर्म अकर्त्यत ततः रक्तप्रवाहः आरब्धः तेन मम श्वेतवस्त्रं रक्तरञ्जितं जातम् इति पुत्रस्य वचनेन मात्रा नितराम् अतुष्यत ताः नेत्रे सजले जाते पुत्रस्य दयागुणं ज्ञात्वा अतीव प्रसन्नतया तया सह गाढम् आलिङ्ग्यत
अस्तु समीचीनम् अस्तु अतः तत्र स्थूलक्षरैः यानि पदानि सन्ति तानि सर्वाणि तत्र लङ्लकारे भावे प्रयोगे वा कर्मणि प्रयोगे वा सन्ति अस्तु अतः इदानीं तत्र पङ्क्तिशः पश्यामः अपि किञ्चित् के के अंशाः अस्ति इति तानपि परिशीलयामः अस्तु तर्हि तत्र रघुवीरेन्द्रस्वामी भवानेव तत्र आरम्भं करोति वा
कस्मिंश्चित् ग्रामे काचित् वृद्धा पुत्रेण सह निवसति स्म कर्मणि भावे प्रयोगः
लङ्लकारः
नास्ति महोदय सामान्यवाक्यमस्ति
सामान्यवाक्यं सह एव तत्र काचित् अपि कस्मिंश्चित् इति तत्र चित् अस्ति चेत् तत्र विभक्तिसामान्यं तत्र ग्रामे इति अस्ति अतः कस्मिन् इति कस्मिंश्चित् ग्रामे इति तावदेव अस्तु समीचीनं महोदय अस्तु अग्रे
माता पुत्रौ उभौ अपि दयापरौ स्तः
हा तत्र दयापरौ नाम नाम किम्
हृदये दयागुणम् अस्ति इति
हा किन्तु बहु केवलं हा बहु अस्ति नाम तत्र परः इति तत्र दयापरः नाम तत्र तुलना अस्ति नाम अन्येषाम् अपेक्षया तत्र एतयोः दयाभावः अधिकः अस्ति इति तत्र अन्ये जनाः ये सन्ति तेषाम् अपेक्षया एतयोः तत्र दयागुणः अधिकः इति अर्थात् दयापरौ एतौ अग्रे
लघु लघुगृहे एव आसीत् तयोः वासः तयोः वासः लघुगृहे एव आसीत्
नाम तयोः वासस्थानं लघुगृहम् इति
कदाचित् वृद्धा रुग्णा जाता सा वृद्धा कदाचित् रुग्णा अभवत्
हा नाम रुग्णा नाम तस्य स्वास्थ्यम्
अस्वस्थः
अस्वास्थ्यम् अभवत् तस्याः अस्वास्थ्यम् अभवत्
सा वृद्धा अस्वस्थः अभवत्
अस्वस्था अस्वस्था
अस्वस्था सा वृद्धा अस्वस्था अभवत्
क्षम्यतां महोदय विद्युत् गतम्
अस्तु भगिनि अस्तु भगिनि
समस्या आसीत्
इदानीं समीचीनं वा भगिनि तत्र समीचीनम् अस्तु भगिनि धन्यवादः तस्मिन्नेव पुटे स्मः भगिनि इदानीं तत्र प्रथमपरिच्छेदस्य परिशीलनं
अस्तु
अस्तु अग्रे महोदय
औषधस्य
औषधस्य
निर्माणाय तया लोध्रवृक्षस्य त्वक् ऐष्यत
हा तत्र औषधस्य निर्माणाय निर्माणाय इति विभक्तिका तत्र
चतुर्थीम्
हा नाम कुत्र चतुर्थी भवति निर्माणार्थम् इति अर्थे खलु
निर्माणार्थं
सत्यं तस्य निर्माणम् आवश्यकम् अतः तत्र निर्माणं कर्तुं स इच्छति किन्तु किमपि अपेक्षितमस्ति अतः तत्र इदानीं तत्र अस्ति तया
निर्माणाय तया लोध्रवृक्षस्य त्वक् ऐष्यत
तया इति कर्तृपदं तत्र ऐष्यत इति अस्ति तत्र ऐष्यत इति पदस्य तत्र सकर्मकः वा अकर्मकः वा
अकर्मकः
ऐष्यत तत्र लट्लकारे तत्र कर्तृप्रयोगे तत्र किं भवति
इच्छति
इच्छति हा अतः तत्र इच्छति सकर्मकः वा अकर्मकः वा
अहमिच्छामि इति
तत्र प्रश्नः भवति खलु भवान् किम् इच्छति इति प्रश्नः भवति खलु अतः सकर्मकः एव
अहमिच्छामि अपि तत्र अहमिच्छामि
कर्मपदं नास्ति किन्तु धातु
तर्हि महोदय महोदय अहं वसामि
तत्र तु वसामि तत्र तु तत्तु अकर्मकः वसामि तत्र अकर्मकः
कुत्र वसति इति अपि प्रश्नः
तत् किन्तु तत् कर्मपदं नास्ति खलु तत्तु सप्तमीविभक्तौ उत्तरं भवति
किं वसति इति न भवति
न इति न भवति सप्तमीविभक्तिं कर्मपदं नास्ति किन्तु द्वितीयविभक्तिं भवति कर्मपदं द्वितीयविभक्तिं भवति अत्र कर्मपदमस्ति वा अस्मिन् वाक्ये तत्र तया ऐष्यत
तया आम् महोदय लोद्रवृक्षस्य त्वक् त्वक्
तत्र तया त्वक् ऐष्यत इदानीं तत्र कर्तृरूपं वदतु प्रथमतया लट् लकारे एव वदतु तत्र कर्तृप्रयोगे लट् लकारे
सा त्वचम् इच्छति
समीचीनं महोदय समीचीनं सा त्वचम् इच्छति तत्र तत्र प्रातिपदिकं किमस्ति त्वक्
त्वक् त्वक् एव त्वच्
तत्र रूपाणि कानि त्वक् त्वचौ
त्वचः
त्वचः त्वचः इति अस्ति समीचीनं इदानीं तत्र अस्तु इदानीं तत्र कर्तृप्रयोगे लङ्लकारे किं भवति
कर्तरि लोद् सा त्वक् ऐच्छत्
ऐच्छत् समीचीनम् आयोगः इकारः ऐच्छत् तदेव अत्रापि तत्र इच्छति इति कर्मणि रूपं किं भवति इच्छति इति इष्यति धातुः
ऐच्छत ऐष्यत
न न इष्यति धातुः कर्मणि लट्लकारः किं भवति इष्यते खलु
इष्यते महोदय
इष्योगः यकारः खलु तत्र
इष्यते
इष्यते इष्यते किन्तु इदानीं तत्र इष्यते स्थाने तत्र वर्तते आसीत् वर्तते इति लट्लकाररूपम् अस्ति चेत् तत्र लङ्लकारे किं भवति अवर्तत इति भवति खलु
अवर्तत
अकारः आदौ अपि ते स्थाने केवलं थ इति खलु इदानीं तत्र इष्यते इति स्थाने इष्यत इति अन्ते तकारः भवतु इष्यते इति स्थाने इष्यत अपि आदौ अकारः यदि योजयामः किं भवति अयोगः इष्यत तत् किं भवति
ऐष्यत
तदेव अत्र अस्ति खलु अतः तत्र इच्छति इति इष्यते इति भवति लट्लकरे तदनन्तरं लङ्लकरे आयिष्यत इति भवति समीचीनं खलु महोदय आं
महोदय धन्यवादः
सोपानेन गच्छामश्चेत् सुलभः भवति तावदेव अतः तत्र इच्छति इष्यते तदनन्तरम् इष्यते आयिष्यत इति भवति तावदेव अस्तु समीचीनम् अस्तु अग्रे वाक्यद्वयं
तया पुत्रः आहूयत तदपि कर्मणि एव महोदय
अतः तत्र कर्तृरूपं तत्र प्रथमतया लट्लकारे वदतु
सा पुत्रम् आह्वयति
सा पुत्रम् आह्वयति समीचीनम् इदानीं तत्र आह्वयति इति तत्र कर्मणि लट् वदतु
आहूयते
आहूयते समीचीनम् इदानीं तत्र आहूयते इति स्थाने इदानीं तत्र लङ्लकाररूपं
सा आहूयत
तत्र आ इति उपसर्गः अस्ति आयोगः हूयते तदनन्तरम् आयोगः अहूयत आहूयत इति भवति अतः आहूयत समीचीनं अन्तिमं वाक्यं तत्र
तया पुत्रः आहूयत तत्र
इति रूपं कृतं अग्रे
स्वीया अपेक्षा असूय असूच्यत च
तत्र कर्तृपदं न दत्तम् अस्ति वस्तुतः तत्र कर्तृपदं किम् अस्ति
कर्तृ सा अपेक्षां
अस्ति च इति अस्ति
सूचयति
तया इति तयि तया यतोहि तया एव कर्तृपदं पूर्वस्मिन् वाक्ये आसीत् तया
त्वया स्वीया अपेक्षा
तत्र असूच्यत इति तत्र तस्य कर्तृ लट् किमस्ति इति वदतु
सूचयति
सूचयति हा समीचीनम् इदानीं तत्र तया असूच्यत इति स्थाने कर्तृरूपं वदतु
स्वीया अपेक्ष स्वीयाम् अपेक्षां सूचयति
हा न स्म मास्तु स्वीयाम् अपेक्षां सूचयति इति लट् लट्लकारी इदानीं तस्य द्वन्द्वकारः सा स्वीयाम् अपेक्षाम्
असूचयत्
असूयत् असूचयत् तदेव गच्छति अगच्छत् असूचयति किं भवति असूचयत् समीचीनं महोदय अतः तत्र सा स्वीयाम् अपेक्षाम् असूचयत् तस्य कर्मणि रूपं भवति तया स्वीया
अपेक्षा
असूच्यत इति
असूच्यत
इदानीं तत्र स्वीया इति तत्र स्वस्य इति अर्थे किन्तु तत्र स्वस्य इति अस्ति चेत् तत्र किं भवति अपि स्वीया इति हा अर्थः समानं अर्थः समीचीनं भवति स्वीया इति तत्र आकारान्तपदं तत्र गतवर्गे भवान् उक्तवान् समीचीनं महोदय अतः तत्र मम मनसि किञ्चित् क्लेशः आसीत् किन्तु धन्यवादः किन्तु तस्मिन् विषये अन्यः अंशः वक्तव्यः अस्ति नाम तत्र स्वीया इति अर्थः तु स्वस्य इति अस्ति तत्र स्वस्य इति उपयोगं कुर्मश्चेत् तत्र एतद् वाक्यं स्वीकुर्मः स्वीयाम् अपेक्षां सूचयति इति वाक्यं स्वीकुर्मः सा स्वीयाम् अपेक्षां सूचयति तत्र स्वस्य इति रूपं स्थापयितुम् इच्छामश्चेत् किं भवति
स्वस्याः भवेत् खलु
सा स्वस्याः अपेक्षां सूचयति इदानीं तत्र पुरुषः अस्ति चेत् सः इति अस्ति चेत् तत्र किं भवति
स्वस्य
स्वस्य तत्र
अपेक्षा
स्वस्य अपेक्षां सूचयति इति भवति तत्र अतः स्वस्य अथवा स्वस्याः अस्ति चेत् तस्य लिङ्गं कथं भवति इति प्रश्ने सति कर्तृपदम् अनुसरति खलु सा अस्ति चेत् स्वस्याः सः अस्ति चेत् स्वस्य किन्तु अत्र स्वीया इति अस्ति तत्र स्वीया किमर्थं महिला इति अतः स्त्रीलिङ्गे अस्ति वा अथवा अन्यत् कारणमस्ति वा
महिला इति एव अपेक्षा इति सा
अपेक्षा स्त्रीलिङ्गे अस्ति इति कृत्वा तत्र स्वीया इति अस्ति तत्र मदीयः भवदीयः इति रूपं जानीमः खलु तादृशमेव तत्र स्वीया नाम सम्बन्धः स्वस्य सम्बन्धः अस्ति स्वस्य इति अर्थः तत्र खलु यत् तत्र भारतीयः मदीयः इति तत्र तस्य इति अर्थे तत्र स्वस्य इति अर्थे अस्ति किन्तु स्वीया इति रूपं किं भवति तत्र कर्मपदम् अग्रे यत् पदमस्ति तस्य विशेषणं भवति अतः अग्रे यत् पदमस्ति तस्य लिङ्गं विभक्तिं च एतत् पदम् अनुसरति यतोहि विशेषणं भवति अग्रिमपदस्य तत्र अपेक्षा अस्ति अतः स्वीया अपेक्षा यदि तत्र सा ग्रन्थः आसीत् चेत् ग्रन्थः इदानीं तत्र ददात् अथवा पठति इति अस्ति चेत् तत्र किं भवति सा स्वीयं ग्रन्थं पठति स्वीयः ग्रन्थः इति भवति यद्यपि महिला कर्तृपदमस्ति सा इति किन्तु स्वीयः ग्रन्थः स्वीयं तत्र पुस्तकं स्वीया अपेक्षा इति भवति नाम तत्र महिलाकर्तृपदमस्ति किन्तु एतस्य पदस्य लिङ्गं विभक्ति सर्वं तत्र कर्मपदम् अनुसरति वचनं कर्मपदम् अनुसरति अतः तत्र स्वस्य इति अर्थः अर्थे स्वस्य इति सामान्यमस्ति किन्तु रूपस्य निर्माणे तत्र किञ्चित् भेदः अस्ति एतत् कर्मपदम् अनुसरति किन्तु स्वस्य इति तु कर्तृपदम् अनुसरति अस्तु समीचीनं महोदय अस्तु अग्रे सरामः तर्हि अग्रे तत्र सूर्यकुमारी भगिनी अग्रे पठति वा
आं महोदय पुत्रेण वनम् अगम्यत
तत्र कर्तृरूपं किमस्ति लट्लकारे प्रथमतया तदनन्तरं लङ्लकारे
पुत्रः वनम् अगच्छत्
पुत्रं वनं गच्छति इदानीं लट्लकारे
लङ्लकारे
पुत्रः वनं अगच्छत् तत्र गच्छति इति तत्र कर्मणि प्रयोगे लट्लकारे किं भवति गम्यते इदानीं गम्यते इति जानीमः तत्र वर्तते अस्ति चेत् अवर्तत गम्यते अस्ति चेत् अगम्यत समीचीनं अस्तु अग्रे
बहुत्र अन्विष्य अन्ते तेन लोध्रवृक्षः अदृश्यत लट्लकारे अपश्यत् लट्लकारे पश्यति
बहुत्र
लोध्रवृक्षं पश्यति
सः अन्ते सः लोध्रवृक्षं पश्यति इदानीं तत्र लङ्लकारे रूपं किं भवति
लङ्लकारे अपश्यत्
किन्तु यदि वयं कर्मणि लट् इच्छामः तत्र पश्यति किं भवति
अदृश्यत
तत्र अपश्यत् अदृश्यता इति भवति अपि तत्र अपश्यत् अदृश्यता इति भवति पश्यति किं भवति दृश्यते इति भवति तत्र दृश्यते समीचीनं अस्तु समीचीनं भगिनि अग्रे
तेन परशुना लोद्रत्वचः अकृत्यन्त लोग्रत्वचः बहुवचनमस्ति कर्मपदकृत्यन्त बहुवचनमस्ति कर्मपदम् अनुसरति अकृत्यन्त कर्मणि प्रयोग लट्लकारे सः परशुना लोद्र त्वचन् लोत्रत्वचन् कुर्वन्ति
लङ्लकारे
लङ्लकारे
अस्तु 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 लट्लकारे वदतु तत्र
करोति कुरुतः कुर्वन्ति
किन्तु भगिनी एतत् तत्र धातुः
सः
कृत्यन्त इति अस्ति
लट्लकार
धातुः कृ धातुः नास्ति भगिनि तत्र
ओ
तत्र कृ नाम करोति खलु अस्तु अत्र अर्थः कः तत्र लोद्रत्वचः अस्ति सः लोद्रत्वचः तत्र किं किमपि केवलं करोति वा अथवा अन्यत् कार्य अन्यत् किमपि करोति वा सः तत्र निर्माणं करोति वा त्वचस्य निर्माणं त्वचः इति यदस्ति त्वचः निर्माणं न करोति अतः सः किं करोति अकृत्यन्त इति नाम कर्तनं करोति इति अर्थः खलु तत्र वृक्षे वृक्षे त्वचः अस्ति त्वचः हा तत्र त्वक् अस्ति वृक्षे त्वक् अस्ति
सः पर्सनल्
त्वक् इच्छति अतः तत्र त्वचः कर्तनं करोति सः अतः तत्र अकृत्यन्त इति अस्ति किन्तु का क्रिया का नाम कर्तनक्रिया अस्ति तत्र अत्र अकृत्यन्ता इति अस्ति अतः तत्र लोद्रत्वचः इति पदस्य वचनं किम् लोद्र लोद्र लोद्रत्वचः
त्वचः बहुवचनमस्ति
हा त्वचौ त्वचः अत्र लोद्रत्वचः बहुवचनम् अस्ति अतः एव तत्र अकृत्यन्त इति क्रियापदं बहुवचने अस्ति तेन नाम पुत्रेण तेन पुत्रेण परशुना लोद्रत्वचः अकृत्यन्त तत्र धातुः अस्ति भगिनि कृत् धातुः कृत् धातुः तुदादिगणे अस्ति न न न कृन्तति इति लट्लकारिरूपम् किं भगिनि कृत् इति धातुः कर्तयति इति अर्थः कर्तयति इति अर्थः कट् इति अर्थः किन्तु कृत् इति धातुः कृन्तति इति लट्लकाररूपम् कृत् कृत् इति धातुः एकनिमिष तत्र चाट् मध्ये अहं प्रेषयामि तत्र अत्र स्थापितमस्ति मया कृत् कृत् इति धातुः भगिनि क्रु इति कृत्
महोदय कृतं कृत
किं भगिनि
कृतः कृतति
कृन्तति इति भवति
कृन्तति
हा कृन्तति इति रूपं कृन्तति कृन्ततः कृन्तन्ति इति रूपं भवति किञ्चित् हा तत्र किं भगिनि
नकाराय
हा 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 सत्यं भगिनि सत्यं अस्तु अतः तत्र तत्र किं भवति भावे तत्र कृत्यते इति भवति तदनन्तरम् अकृत्यत इति लङ्लकारे रूपं भवति अकृत्यत अकृत्यताम् अकृत्यन्त इति अर्थः
धातु रुधादिगणे अस्ति
न महोदय एषः धातु तत्र एषः धातु महोदय तत्र रुदादि नास्ति महोदय रुदादि तत्र अन्न तत्र अर्थः भिन्नः अस्ति महोदय
नकार मध्ये कथम् आगत
एतत् तुदादिगणे अस्ति महोदय
तुदादिगणे अकार एव वर्तते
तत्र प्रक्रिया कथम् इति तत्र द्रष्टव्यम् अस्ति भगिनि तत्र हा तत्र कथं तत्र नकारः आगच्छति हा तत्र हा बहु तत्र प्रक्रिया पश्यतु प्रक्रियां पश्यतु तत्र लभ्यते किन्तु हा एतदेव तत्र कृत् छेदने इति छेदने नाम कट् इति अतः अन्यत् अन्यः धातुः अस्ति कृत् इति किन्तु सः भिन्नः धातुः अतः तत्र सः इदानीं तत्र सः लट्लकरे वदतु सः परशुना
परशुना लोद्रत्वचन्
न न इदानीं तत्र लोद्र त्वचः इति बहुवचने अस्ति त्वचौ त्वचः तत्र रघुवेन्द्रस्वामी पुनः वदतु तत्र रूपाणि कानि इति तत्र त्वक् त्वचौ त्वचः द्वितीयविभक्तौ त्वचः अतः सः परशुना लोद्र त्वचः लट्लकारे कृन्तति कृन्तति इदानीं तत्र लङ्लकारे
लङ्लकारे
अकृन्त
अकृत्य अकृन्त
अकृन्तत् एकवचने यतोहि सः इति एव अस्ति खलु
अकृत्
अकृन्तत्
अकृन्त
सः परशुना लोद्रत्वचः अकृन्त अग्रे
लङ्लकार
लङ्लकार एव अकृन्तत् लट्लकारे कृन्तति खलु
ताः सर्वाः सङ्गृह्य गृहम् आनीय मात्रे अधीयन्त बहुवचनमस्ति कर्मणि प्रयोगे मात्रे अधि अकर्मक मात्रे मात्रः मात्रे बहुवचनमस्ति मात्रौ मात्रे न जानामि महोदय अधीयन्त मात्रः
तत्र अधीयन्त इति अस्ति तत्र अर्थः कः तत्र सः किं कृतवान् ताः सर्वाः नाम काः
ताः लोद्र त्वचः
हा समीचीनं त्वच इति त्वक् इति तु स्त्रीलिङ्गपदं समीचीनं लोद्रत्वचः बहुवचने स्त्रीलिङ्गपदं बहुवचने अस्ति ताः सर्वाः नाम ताः सर्वाः लोद्रत्वचः सङ्गृह्य
गृहमानीय
सङ्गृह्य अपि गृहमानीय गृहमपि आनीय तत्र आनीय लेप् सङ्गृह्य लेप् तदनन्तरं सः तेन किं कृतं
मात्रे अधीयन्त
हा नाम मात्रे इति विभक्ति का तत्र
मात्रे सप्तमी महोदय
न भगिनि तत्र अर्थः कः वाक्यस्य सः किं कृतवान् वचः सर्वं सङ्गृह्य वचः सङ्गृह्य सः किं कृतवान्
ओके मात्रे बहुवचनं महोदय
मात्रे बहुवचनं कथं भवति भगिनि तत्र अधीयन्त इति अस्ति तत्र किन्तु तत्र सन्दर्भः कः इति चिन्तयतु तत्र स्थितिः का इति चिन्तयतु भगिनि तत्र पुत्रः वचः तत्र मात्रा किं माता किमपि किं चिन्तयति औषधाय तत्र औषधस्य निर्माणाय त्वच त्वक् इच्छति सा इदानीं पुत्रः त्वचः सङ्गृह्य त्वचः याः त्वचाः सन्ति सर्वाः तत्र सङ्गृह्य अपि गृहमपि आनीय इदानीं सः किं करोति
मातृनिर्माणं करोति
मातृनिर्माणं न मातृनिर्माणं कथं मात्र इति नाम किम्
मात्रे
मात्रे इति प्रातिपदिकं वदतु मात्र इति पदस्य प्रातिपदिकं किम्
मातृशब्दः
मातृशब्दः
मातृ क्षम्यतां महोदय
अतः मात्रे इति विभक्ति का तत्र विभक्तिवचनं किम्
ओ चतुर्थी विभक्ति वा
अधीयन्ता अस्ति चेत् तत्र धानकार्यमस्ति खलु भगिनि सः किं करोति त्वचः सर्वं सङ्गृह्य किं करोति मात्रे ददाति खलु भगिनि तत्र वाक्यस्य अर्थः कः इति एव दृष्ट्वा एव वयं तत्र विभक्ति का इति सर्वं वक्तुं शक्नुमः खलु. विभक्ति सर्वं दृष्ट्वा विभक्ति का इति सर्वं दृष्ट्वा तदनन्तरम् अर्थः कः इति न भवति खलु भगिनि. अतः तत्र दानकार्यं भवति, सः सङ्ग्रहणं कृतवान्, इदानीं तत्र मात्रे अर्पणं करोति खलु. अतः मात्रे अधीयन्ता, अधीयन्ता इति तत्र धातुः कः?
धातु.
हा, धातुः. तत्र कर्त्री ददाति,
कर्त्री ददाति,
इदानीं तत्र तु लङ्लकारः,
लङ्लकारः
तत्र तत्र कर्मणि प्रयोगे धीयते इति अस्ति, तदनन्तरं धीयते इति स्थाने किं भवति? अधीयत अधीयत इति भवति. किमर्थम् अधीयन्त इति अस्ति?
अधीयन्त
बहुवचने अस्ति खलु, अधीयन्त. हा, किमर्थं? हा, सर्वाः इति कर्मपदं बहुवचने अस्ति. तेन तेन अधीयन्त, तेन ताः सर्वाः अधीयन्त, अतः कर्मपदं बहुवचने अस्ति इति कृत्वा तादृशम् अस्ति. तत्र ददाति इति तत्र पदस्य लङ्लकाररूपं किम्? न न, ददाति इति कर्त्री, कर्त्री लङ्लकारः, ददति ददाति इति
ददत्ते.
न, ददाति इति परस्मैपदी धातु, ददाति तस्य कर्त्री लट् कर्त्री लङ्,
कर्त्री लङ्
पठति अपठत्, ददाति
अददत्,
अददत्, समीचीनं भगिनि, अददत्. तस्य एव अत्र रूपम् अधीयन्त्र इति कर्मणि एव. समीचीनं भगिनि, अस्तु. अग्रे तत्र लक्ष्मी भगिनी अग्रे करोति वा?
हा, अस्तु महोदय. लोद्रवृक्षः इत्युक्ते कः वृक्षः?
न जानामि भगिनि, रघुवीरनन्दस्वामी जानाति वा इति?
औषधवृक्षः.
हा, किन्तु
महोदय किमपि दत्तं खलु, किन्तु अहम् इङ्ग्लिश् भाषायाम् अपि न जानामि किं तत्.
न, अहमपि न जानामि भगिनि. तत्र एकनिमिषः
अस्ति अस्ति
प्रायशस्मध्ये किमपि दत्तं चेत् वदामि भगिनि. तत्र लोद्र
पूर्वस्मिन् कक्षायाम् अहं मया दृष्टं, किन्तु
ओ अस्तु महोदय.
ऐ डोण्ट् रिमेम्बर् द नेम्, इट् सम् इङ्ग्लिश् नेम्. वाट् डु वि
हा, लोटस् बार्क् ट्री इति अस्ति भगिनि, लोटस् बार्क् ट्री.
ओ,
लोटस् न जानामि तत्र कः वृक्षः इति, न जानामि भगिनि. तत्र वृक्षविशेषणं न जानामि. अस्तु,
अहं पठामि पुनः. कदाचित् तया
तत्र वाक्यं तत्र मात्रा लोद्रत्वचा.
ओ, मात्रा
अमरकोशे तु गालवः, शाबर, लोद्र
इति अस्ति
समानार्थः. समानार्थः गालव
तत्र
गालवृक्षः
अस्तु. तं वृक्षमपि अहं न जानामि. धन्यवादः महोदय. अस्तु भगिनि, अग्रे पठतु तत्र.
मात्र लोत्र
सिम्प्लोकोस् रेसिब् रेसिमोसा.
बोटानिकल्
विलियम्स् मध्ये दत्तं सिम्प्लोकोस् रेसिमोसा.
अहमपि न जानामि.
अत्र मात्रा लोद्रत्वचा औषधम् अक्रियत. अक्रियत लङ्लकारे, कर्मणि लङ्लकारे अस्ति,
कर्मणि लङ्ल. इदानीं तत्र कर्त्री लट् रूपं प्रथमतया वदतु.
लट्
कर्तरि
क्रियते
क्रियते इति कर्मणि एव भवति किन्तु
करोति
हा करोति अथवा कुरुते करोति इति एव स्वीकुर्मः करोति हा इदानीं तत्र वाक्यं वदतु कर्तृप्रयोगे वाक्यं लट्लकारे करोति
माता लोद्र त्वचं लोद्र
अस्तु तत्र माता इति एव स्वीकरोतु क्रियापदं प्रथमतया स्थापयतु मात्रा करोति
मात्रा करोति
न माता करोति
माता औषधं करोति
हा समीचीनं माता औषधं करोति
लोद्रत्वचया औषधं करोति
न लोद्रत्वचया इति न यतोहि त्वक् इति धातुः त्वक् इति
लोद्रत्वचा औषधं करोति
हा तत्र त्वचा इति एव तृतीयविभक्ति तत्र लोद्रत्वचा तत्र विशेषणं भवति वा मात्रा इति पदस्य कर्तृपदं वा तत् लोद्रत्वचा अस्मिन् वाक्ये लोद्रत्वचा तृतीयविभक्त्याम् अस्ति खलु कर्तृपदं वा
न माता कर्तृपदं
मात्रा एव कर्तृपदं तत्र लोद्र मात्रा अक्रियत इति तस्य अर्थः जानीमः तत्र माता करोति किन्तु लोद्रत्वचा अक्रियत इति तत्र लोद्रत्वच् तत्र लोद्रत्वक् करोति इति किमपि वाक्यं न भवति खलु हा अतः तत्र लोद्रत्वचा केवलं माध्यमम् अथवा तत्र हा उपायम् अथवा माध्यमं नाम तेन माता औषधं करोति अतः हा माता लोद्रत्वचा औषधं करोति इदानीं तत्र तस्य लङ्लकारः कर्त्री एव कर्त्री लङ्लकारः
लोद्रत्वचा औषधम् अकरोत्
अकरोत् तावदेव हा माता लोद्रत्वचा औषधम् अकरोत् समीचीनं हा अग्रे
तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता जाता
हा तस्य नाम कस्य
औषधस्य
हा औषधस्य तस्य औषधस्य सेवनेन सा
शीघ्रमेव रोगमुक्ता जाता
रोगमुक्ता विशेषणं सा इति पदस्य सा माता रोगमुक्ता जाता अहं स्वस्था जाता इदानीम् अस्वस्था आसीत् इदानीं स्वस्था
जाता
अग्रे अग्रे मात्रं
पुनः कदाचित् तया पुत्रस्य रक्तसञ्जितं
रक्तरञ्जितं
श्वेतवस्त्रम् आलोक्यत
हा तत्र आलोक्यत इति तत्र कर्त्री लट् रूपं किमस्ति
कर्त्री लट्
आलोकते हा अत्र आलोकते इति प्राश अस्ति आलोकते आलोकते नाम पश्यति इति एव अर्थः खलु
अलोकत इति भवति वा
हा हा तत्र अलोकत
धातु लोकते इति
हा लोकते अस्ति चेत् अलोकत लोकते अस्ति चेत् कर्त्री लोकते तदनन्तरं कर्मणि लोकते किम् इति लोक्यते
कर्मणि लट् लोक्यते
हा किन्तु तत्र कर्मणि लङ् किं भवति अलोक्यत इति एव भवति खलु तत्र ह्रस्वाकारः एव तिष्ठति खलु किन्तु अत्र ह्रस्वाकारः अस्ति वा दीर्घाकारः अस्ति वा अत्र
दीर्घः अस्ति
हा अतः तत्र धातु उपसर्गसहितधातुः अस्ति अलोकत अलोकते इति धातुः अ उपसर्गः
उपसर्गः
हा अथवा आलोकते तत्र आलोकत न आलोकते आलोकते इति
आलोकते
दीर्घाकारः हा तत्र आलोकते इति हा आलोकते इति धातुः हा इति तत्र आ इति पश्यति पश्यति इति एव अतः तत्र आयोगः अलोक्यत आलोक्यत इति भवति रूपं तत्र रक्तवन्दितं नाम इदानीं पुनः तत्र कर्तृरूपं वदामः तत्र पुनः कदाचित्
सा पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम्
आलोकते आलोकते तत्र लटि आलोकते
आलोकते
अपि लङ्
आलोकत
न न हा आलोकत समीचीनम् आलोकत इदानीं कर्मणि लङ् आलोक्यत यकारस्य आगमनं
आलोक्यत
हा तावदेव हा तत्र रक्तरञ्जितं नाम वस्त्रं तु श्वेतवस्त्रमेव
रक्तमयं
रक्तमयं नाम सर्वत्र रक्तवर्णः अस्ति इति किन्तु केवलम् एकस्मिन् प्रदेशे एव रक्तवर्णम् अस्ति सर्वत्र न अतः हा रक्तरञ्जितं नाम कुत्रचित् रक्तवर्णम् अस्ति किन्तु अन्यस्मिन् प्रदेशे श्वेतवर्णः वर्णमेव अस्ति श्वेतवर्णं तत्र श्वेतवर्णः एव अस्ति इति किन्तु रक्तरञ्जितं तत्र कुत्रचित् तत्र रक्तवर्णम् अस्ति इति हा तादृशं श्वेतवस्त्रं सा तत्र दृष्टवती हा तत्र आलोक्यत तया आलोक्यत अग्रे
तया आतङ्केन पुत्रः अपृच्छत
हा इदानीं तत्र तस्य कर्त्री करोतु
आम् पृच्छति
अपृच्छत तत्र पृच्छति समीचीनं हा अथवा अपृच्छत्
लट् लकारे अपृच्छत् लङ् लकारे कर्मणि पृच्छते
हा
कर्मणि लङ् अपृच्छत
इति समीचीनं हा इदानीं कर्त्री लट् वदतु
सा आतङ्केन पुत्रं पृच्छति
पृच्छति समीचीनं
अपृच्छत्
अपृच्छत् लङि समीचीनं हा सा आतङ्केन
पुत्रम्
अपृच्छत् समीचीनं हा अग्रे
वत्स भवतः श्वेतवस्त्रं कथं रक्तमयं सञ्जातम्
हा भवतः श्वेतवस्त्रं कथं रक्तमयं सञ्जातम् इति हा समीचीनं तत्र रक्तवर्णं कथम् आगतं कुतः आगतम् इति सा पृच्छति हा अग्रे
पुत्रेण न किमपि अकथ्यत कथ्यते इति लट् लकार कर्तरि लट्
नाम
लकारे कर्मणि कर्मणि लट् कथ्यते
अकथ्यत हा तत्र इदानीं तत्र कर्त्री वदतु तत्र किं भवति
कर्तरी पुत्रः न किमपि अकथ्यत अकथयत्
प्रथमतया तत्र लट् लकार वदतु लट् लकार किमस्ति
लट् लकारे कर्तरि लट् वा कर्मणि लट् वा
कर्तृलट् कर्तृ
पुत्रः न किमपि अकथयत्
अस्तु अकथयत् कथयति किमपि न कथयति समीचीनं हा समीचीनं भगिनि हा अस्तु अग्रे
कथयति लङ् लकारे पुत्रः न किमपि अकथयत्
अकथयत् हा
कर्मणि लट् पुत्रेण न किमपि कथ्यते कर्मणि लङ् पुत्रेण न किमपि अकथ्यत
हा समीचीनं भगिनि हा अस्तु अग्रे
तेन तूष्णीम् अस्तीयत
हा नाम
सः तूष्णीं तिष्ठति
हा सः तूष्णीं तिष्ठति अथवा अतिष्ठत् अतिष्ठत् तत्र तूष्णीं नाम क्रियाविशेषणं कथं सः अतिष्ठत् तूष्णीम् अतिष्ठत् अस्तु समीचीनम् अतः एतावत् तत्र अद्य कुर्मः अग्रिमवर्गे इतः अग्रे करामः तर्हि अस्तु तत्र रघुनन्दस्वामी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा महोदय
ॐ पूर्णमदः पूर्णमिदं पूर्णा पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः
धन्यवादः
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 धन्यवादः महोदय
पुनर्मिलामः